इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। अम्बेडकर जयन्त्यवसरे प्रधानमन्त्री नरेन्द्र मोदी श्वः हरियाणा राज्यं प्रतियाति। प्रधानमन्त्री तत्र हिसारतः अयोध्या पर्यन्तं वाणिज्यिक विमानाय एकस्मै हरितध्वजं प्रदर्शयिष्यति। अपि च हिसार विमानस्थानकस्य नूतनस्य रोहणाग्र भवनस्य आधारशिलां स्थापयिष्यति। तदनु असौ यमुना नगरे अनेकासां विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च विधास्यति। अत्रावसरे उपस्थितं जनसमूहमपि सम्बोधयिष्यति। विमानयात्रां सुरक्षितं अल्पमूल्ययुतं समेषां कृते सुगम्यं च कर्तुं स्वप्रतिबद्धताम् अनुसरन् प्रधानमन्त्री हिसारक्षेत्रे महाराजाग्रसेन विमानस्थानकस्य नवीनस्य अस्य भवनस्य आधारशिलां स्थापयिष्यति, यस्य मूल्यं 10.4 कोटि रूप्यकाणि यावदस्ति। प्रधानमन्त्री अत्रावधौ भारतमाला परियोजनायाः अन्तर्गतं भूयोऽपि 70.5 सहस्र कोटि रूप्यकाणां व्ययेन निर्मितायाः 14.4 किलोमीटर परिमितायाः रेवाड़ी उपमार्ग परियोजनायाः अपि उद्घाटनं करिष्यति। अनया हि परियोजनया रेवाड़ी नगरे जनसम्मर्दः अल्पो भविष्यति, अथ च दिल्ली नारनौल मध्ये प्रकल्पितः समयावधिः एकहोरां यावत् भविष्यति। मध्यप्रदेश प्रशासनेन आयोक्ष्यमाणे एकस्मिन् कार्यक्रमे भागं स्वीकर्तुं केन्द्रीय गृहमन्त्री अमितशाहः अद्य भोपाल नगरं सम्प्राप्स्यति। दुग्धोत्पाद सम्बद्धानां समेषां प्रमुखाणां हितधारकाणां प्रतिनिधयः अपि एतस्मिन् कार्यक्रमे भागं स्वीकरिष्यति। अत्रावसरे मध्यप्रदेश प्रशासनम् अन्यैः जनैः साकम् एकस्मिन् सहयोगात्मक सन्धिपत्रे हस्ताक्षरं कृत्वा राज्यस्यास्य दुग्धोत्पादोद्योगाय एकं महत्वपूर्णं पदक्षेपम् उत्थापयिष्यति। अस्य सहयोगात्मक सन्धिपत्रस्य निर्णयस्य घोषणा साम्प्रतिके एव समये मुख्यमन्त्रिणा मोहन यादवेन कृता आसीत्। असौ निगदितवान् यत् अयम् उत्थापितः पदक्षेपः दुग्धोत्पादकानाम् आय संवर्धनाय क्षेत्रे च दुग्धोत्पादन वृद्धये महत्वपूर्णो भविष्यति इति। केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अद्य नवदिल्ल्याः यशोभूमि सम्मेलन केन्द्रे भारतस्य बृहत्तमायाः भवन निर्माण सामग्र्याः वाइब्रेंट बिल्डकॉन इत्याख्यस्याः 25.5 वर्षीयायाः उद्घाटनं विधास्यति। ब्लूजोन द्वारा आयोजिते कैपेक्सिल वाणिज्य मंत्रालयाभ्याम समर्थिते एतस्मिन् कार्यक्रमे 27,000 वर्ग मीटरात्मके परिमाणे 250,000 संख्यकाः प्रदर्शकाः, 700,000 संख्यकाः वैश्विक क्रेतारः, 50,000 संख्यकाः च दैशिकागन्तुकाः सम्मिलिताः भविष्यन्ति इति अवगम्यते। एतस्मिन् एक्सपो कार्यक्रमे अमेरिका, ब्राजील, मैक्सिको देशान् समेत्य 60 देशानां क्रेतारः समायान्ति। सर्वोच्च न्यायालयेन निर्णयः श्रावितः यत् राज्यपालैः प्रदत्तेषु राष्ट्रपतेः सहमतये आरक्षित राज्य विधेयकेषु राष्ट्रपतिना मासत्रयानन्तरमेव निर्णयः स्वीकरणीयः इति। शीर्ष न्यायालयेन तमिलनाडु राज्यस्य राज्यपालस्य आरएन रवेः 10 लम्बित विधेयकेषु स्वीकृतिं नैव प्रदीयमानः निर्णयः निरस्तीकृतः, अथ च एतस्यां प्रक्रियायां निर्णयोऽयं श्रावितः यत् राष्ट्रपतिना अपि राज्यपालेन निर्दिष्टानां विधेयकानां विषये निर्णयम् अधिगन्तुं मासत्रयात् अधिकः समयः नैव स्वीकरणीयः इति। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ हैदराबाद नगरे जाते द्वन्द्वे सनराइजर्स हैदराबाद दलेन पंजाब किंग्स दलं 8 पराभूतम्। अद्य जयपुरे राजस्थान रॉयल्स रॉयल चैलेंजर्स बैंगलुरू दलयोर्मध्ये सामुख्यं भविष्यति इति वार्ताः।